अष्टमोध्याय तारक ब्रह्म योग। अर्जुन वाच किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम अधिभूतञ्च किं प्रोक्तम अधिदैवं किमुच्यते अधिजज्ञ कथं कोत्र देहेऽस्मिन् मधुसूदन प्रयाण काले च कथं ज्ञेयोऽसि नियतात्मभिः। श्री भगवान उवाच अखरं परमं ब्रह्म स्वभावोध्यात्मोच्यते भूतभावद्भवकरो विसर्गः कर्मसंहितः अधिभूतं खरो भावः पुरुषश्चादिदैवतम् अधिजुग्गोहमेवात्र देहे देह भृताङ्गवर अन्तकाले च मामेव स्मरन् मुक्ता कलेवरं यः प्रयाति समद्भावं जाति नास्तत्र संशयः जङ् जङ् भापी स्मरन् भावं तजत्तन्ते कलेवरं तं तमेवैति कौन्तेय सदा तद्भावभाविता तस्मात् सर्वेषु कालेषु मामनुस्मरदुच्युद्ध च मुच्चर्पितमनोबुद्धिर्मामेवैष्यसि असंशयाः। अभ्यासयोगयुक्तेन चेतसा नन्नगामिना परमङ्गपुरुषङ्गदिव्यं जातिपर्थानुचिन्तयन् कविं पुराणामनुशासितारमनोरणीयान् समनुस्मरेदि च सर्वस्य धातारमचिन्तरूप मादित्यवर्णं तमसः परस्तात् प्रयाणकाले मनसा चलेन भक्त्या युक्तो योगबलेन चैव भ्रूर्मध्ये प्राणमावेश्य सम्यक् शातङ्गपरं पुरुषमुपैति दिव्यं यदक्षरं वेदविदो वदन्ति विशन्ति यद् यतयो वीतुरागा यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहीन प्रवक्षे सर्वद्धाराणि संयम्य मनोहृदि निरुद्ध च मूर्ध्नाध्यायात्मनः प्राणमाश्रितो योगधारणम् ओमित्येकाक्षरं ब्रह्म व्याहरन् मामनुस्मरन् यः प्रयाति सजन देहं स जाति परमाङ्गतिम् अनन्यचेता सततं जो मां स्मरति नित्यश तस्याहं सुलभः पार्थ नित्यजुक्तस्य योगिनः मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतं नाप्नुवन्ति महात्मानः संसिद्धिं परमाङ्गताः। आब्रह्मभुवनाल्लोकः पुनरावर्तिनोऽर्जुन मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते। सहस्रयुगपर्यन्तं महर्यद्ब्रह्मणो विदु रात्रियुगसहस्रान्तेहोरात्रविदु जनाः अव्यक्ताद्वक्तय सर्वा प्रभवन्तः हरागमे रात्रागमे प्रलीयन्ते तत्रैवाव्यक्तसङ्गके भूतग्रामसैवायं भूत्ता भूत्ता प्रलीयते रत्ता गमे वसः पार्थ प्रभवत्याहरा गमे परस्तस्मात्तु भावन्नो वक्तु वक्तात् सनातनः जस सर्वेषु भूतेषु नश्यत्सु न विनश्यति अवक्तु खर इत्युक्तस्तस्माहु परमाङ्गतिं जङ् प्राप्य न निवर्तन्ते तद्धाम परमं मम। पुरुषस्य परः पार्थ भक्त्या लभ्यस्तनन्वया जस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम्। यत्र काले त्वनावृत्तिमावृत्तिञ्चैव योगिनः प्रयाता जान्ति तं कालं वक्ष्यामि भरतर्षव अग्निर्ज्योतिरः शुक्ल षण्मासायुत्तरायणं तत्र प्रयातगच्छन्ति ब्रह्म ब्रह्मो विदुजनाः धूमो रात्रिस्तथा कृष्ण षण्मासा दक्षिणायनं तत्र चान्द्रमसंज्योतिर्जोगी प्रपरिवर्तते शुक्लकृष्णे गतिच्छेते जगतः शाश्वते मते एकया यत्तनावृत्तिर्मन्नया वर्तते पुनः नैते सीति पार्थ जानन् योगी मुच्छति कश्चन तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन वेदेषु यज्ञेषु तपस्सु चैव दानेषु च पुण्यफलं प्रविष्टम् अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् इति श्रीमहाभारते सहस्रं संहितायां वैयासिकं भीष्मपर्वणि श्रीमद्भगवद्गीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे तारकब्रह्मयोगनामाष्टमोऽध्यायः मञ्जाकल्पद्रुभ्यः शुक्रवासुभ्यैव च पितारं पावनेभ्यो वैष्णवेभ्यो नमो नमः।